देवी त्वता वास्य मितं न किञ्चित् वस्तु त्वदन्यत् बहुदेववासी देवासुरासृ वनरादिरूपा विश्वात्मिके ते सततं नमोस्तु न जन्मते कर्म च देवि लोक क्षेमाय जन्मानि तदासि मातः करोषि कर्माणि च निस्पृहा त्वं जगद्विदात्रीं सततं नमस्ते।